श्रीमद्भागवत महापुराणम् दशमस्कन्धः अथैकविंशोऽध्यायः गोप्य ऊचुः अक्षण्वतां फलमिदन्न सख्यः पशूननु विवेशयतोर्वयस्यैः वक्त्रव्रजेशसुतयोरनुवेणुजुष्टैः यैर्वानिपीतमनुरक्तकटाक्षमोक्षम् चूतप्रवालबर्हस् तव कोत्पलाब्ज मालानुप्रोक्त परिधान विचित्रवेषौ मध्ये विरेजतुरलं पशुपालगोष्ठ्यां रंगे यथा नटवरौ क्वच गोप्यः किमाचरदयं कुशलं स्म वेणुर्दामोदराधरसुधामपि गोपिकानां भुङ्क्ते स्वयै यदवशिष्टरसं हृदिं यो ऋष्यत्वचोषु मुमुचुस्तरवो यथार्याः वृन्दावनं सखि भुवो वितनोति कीर्ते यद्देवकी सुतपदां भुजलब्धलक्ष्मि गोविन्दवे मयूरनृत्यं प्रेक्ष्याद्रिसान्वपरतान् यसमस्तसत्त्वं धन्यास्ममूढमतयोऽपि हरिण्येता यानन्दनन्दनमुपात विचित्रवेषम् आकर्ण्य वेणुरणितं सह कृष्णसाराः पूजां दधुर्विरचितां प्रणयावलोकैः कृष्णं निरीक्ष्य वनितोत्सवरूपशीलम् श्रुत्वा च तत्क्वणितवेणुविचित्रगीतं देव्यो विमानगतयस्मरनुन्नसारा भ्रश्यत्प्रसूनकबरामुमुहुर्विनीव्यः गावश्च कृष्णमुखनिर्गतवेणुगीत पीयूषमुत्तभितकर्णपुटैः पिबन्त्यः श्यामास्नुतस्तनपयक् कवलास्मतस्थुर्गोविन्दमात्मनिदृशाश्रुकलास्पृशन्त्यः प्रायोवताम्बविहगामुनयोवनेऽस्मिन् कृष्णे क्षितं तदुदिदं कलवेणुगीतम् आरुह्य ये द्रुमभुजान् रुचिरप्रवालान् शृण्वन्त्यमीलितदृशो विगतान्यवाच वाचः नद्यस्तदा तदुपधार्य मुकुन्द गीत मावर्तलक्षितमनो भवभग्नवेगाः आलिङ्गनस्थगितमूर्मिभुजैर्मुरारीर्गृह्णन्ति पादयुगलं कमलोपहाराः दृष्ट्वा तपे व्रजपशून् सह सैचारयन्तमनुवेणुमुदीरयन्तम् प्रेम प्रवृद्ध उदितक् कुसुमावलीभिः सख्युर्व्यधात् स्ववपुषाम्बुदातपत्रम् पूर्णाः पुलिन्द्यौरुगा श्रीकुङ्कुमेन दयितास्तनमण्डितेन तद्दर्शनस्मररुजस्तृणरूषितेन लिम्पन्त्य आननकुचेषु जहुस्तदाधिम् हन्ताय यद्रामकृष्णचरणस्पर्शप्रमोदः मानन्तनोति सह गोगणयोस्तयोर्यत् पानीयसूयवसकन्दरकन्दमूलैः गागोपकै वेणुस्वनैक् कलपदैस्तनुभृत्सु सख्यः अस्वन्दनं गतिमतां पुलकस्तरूणान् निर्योगपाशकृतलक्षणयोर्विचित्रम् ॐ सर्वं श्रीकृष्णार्पणमस्तु।